శ్రీ ఆదినాథాయ నమోస్తు తస్మై యేనోపదిష్టా హఠయోగ విద్యా విభ్రాజతే ప్రోన్నత రాజయోగం ఆరోఢుమిచ్చోరచిరోహిణీవ. గత కక్ష్యాయాం వయం గత కక్ష్యాయాం వయం దశ శ్లోకాన్ యావత్ పఠితవంతః. అధునా ఏకాదశ శ్లోకః పఠనీయః. అధునా ఏకాదశం శ్లోకం పఠామః. పఠవిద్యా పరం గోప్యా యోగినా సిద్ధిమిచ్ఛత భవేద్ వీర్యవతీ దుక్తా నిర్వీర్యా తు ప్రకాశః. అత్ర అస్మిన్ శ్లోకే పఠవిద్యాయాః అతి గోప్యత్వం తత్ సూచ్యతే, నామ గోపనీయత్వం గుపు రక్షణే ఇతి ధాతుః. నామ ఇయం విద్య సర్వత్ర నామ ముక్తతయా వ్యక్తతయా అధికారి అనధికారి భేద పరిజ్ఞానమంతరా తస్య సార్వజనిక ప్రకటనం న కరణీయం. యః యుక్తః యః యోగ్యతాసంపన్నః యః అర్హతి తాదృశః శిష్యః చేతవ్యః తస్మై ఇయం విద్యా దాతవ్యా ఇతి. ఏతేన తాత్పర్యేణ అయం శ్లోకః ఆరభ్యతే. పఠవిద్యా పరం గోప్య, నామ అత్యంతమేవ గోపనీయా అస్తి, గోపనార్హ అస్తి. కిమర్థం గోపనీయా ఇది చేత్, యోగినా సిద్ధిమిచ్ఛత, యది కశ్చిత్ యోగీ సిద్ధిం వాంఛేత్, నామ హఠవిద్యాయాం సిద్ధిం ఇచ్చేత్, ఉపదేశ దానం అపి తత్ర గోప్యతయా తేయం, అనంతరం గృహీతం తజ్ఞానం తదపి న సర్వత్ర ప్రకటనీయం, ఓ మయా ఏవం ఏతాదృశ ఉపదేశ మయా ప్రాప్తః అస్తి ఇది సర్వత్ర న ప్రకటనీయం. నమ యథా తత్ర భగవద్గీతాయాం ఉచ్యతే ఏకాకీ యత చిత్తాత్మా నిరాశీ అపరిగ్రహ ఇతి. ఏకాకినా భూత్వా అస్య హఠయోగస్య సాధనం కరణీయం, ఓ మయా ఈదృశం జ్ఞానం ప్రాప్తం ఇది సర్వత్ర ప్రచారః న కరణీయః. యది ఏవం ప్రచారః క్రియతే తర్హి కిం భవతి నిర్వీర్యాతు ప్రకాశితా. సర్వత్ర మయా ఇదం ప్రాప్తం ఇది యదా ఉచ్యతే తదా కిం భవతి తత్ర అభ్యాసాయ సమయః న భవతి, కేవలం వాగ్వ్యాపారః భవతి. ఓ మయా ఈదృశం జ్ఞానం ప్రాప్తం ఇది కస్మాచిత్ గురో, ఏతద్ కేవలం హఠవిద్యాయాః ఇతి న, సర్వాసామపి విద్యానాం తజ్ఞానం కించన జ్ఞానం ప్రాప్యతే కించిత్ యత్కించిత్ పుస్తకం అవలోక్యతే పఠ్యతే తదా విషయస్య అవగమః భవతి. పరంతు అవగమనేన ఏవ ఏతాదృశ యోగ విద్యానాం గతార్థత న భవతి. అవగత్య సమ్యక్ అభ్యస్య అనుభూతిం ప్రాప్య అగ్రే గంతవ్యం. కేవలం అవగమనమేవ అస్య తత్ర అంతిమ సోపానం న భవతి. తదేతత్ ద్యోతయితుం తదేతత్ ద్రఢయితుం అత్ర ఏవముచ్యతే ఏతద్విషయే విద్యా యది ప్రాప్యతే రహస్యతయా పరిరక్షణీయ అభ్యాస కరణీయ భవేద్ వీర్యవతి గుప్త నిర్వీర్యాతు ప్రకాశిత. యది కశ్చిత్ స్వాత్మన్యేవ ఏతాం విద్యాం గృహీత్వా నితాంతం ఏకాకీ భూత్వా అస్య అభ్యాసం కరోతి తదా వీర్యవతి భవతి. కా వీర్యవతి భవతి? హఠవిద్య వీర్యవతి భవతి. అన్యథాతు నిర్వీర్యా భవతి. నమ యదుద్దిష్టం ఫలం తత్ప్రతి కదా గంతుం శక్యతే ఇది చేత ఏకాకీ భూత్వా యది కశ్చిత్ సాధనం కుర్యాత్ तदा तत् प्राप्यते। एकस्तपः द्विरध्यायी इति शास्त्रे वचनमस्ति। सर्वदापि अध्ययनं द्वित्रि जनाः मिलित्वा कर्तुमर्हन्ति, मित्राः जनाः अध्ययनं मिलित्वा कर्तुमर्हन्ति, परन्तु हठविद्या तु तपोरूप। तस्मात् एकस्तपः नाम एकाकिना अत्र तपोरूपेण हठविद्यायाः अभ्यासः करणीयः। अतः सामान्यज्ञानस्य हठज्ञानस्य च भेदः अत्र प्रकाश्यते। नाम योगशास्त्रं सर्वदापि अनुष्ठानशास्त्रं भवति। सर्वेषाम् अनुष्ठानशास्त्राणां कुत्र पर्यवसानम् इति चेत् अनुभूतौ पर्यवसानं भवति। नाम अनुभूतिपर्यन्तम् अनुष्ठानं करणीयम्। अतः विद्याग्रहणम् अनुष्ठानं, तद्वारा अनुभूतिप्राप्तिः, तदनन्तरम् अग्रे सिद्धीनां लब्धिः इत्येवं क्रमः भवति अनुष्ठानशास्त्राणां योगसदृशानां। तदर्थम् एषः श्लोकः उक्तः। अन्यत् अत्र अन्योपि विचारः अत्र अर्थात् गृहीतव्यः, नाम यः विद्यां गृहीत्वा अनुष्ठानपरः भवति तादृशाय विद्या दातव्या। केवलं विषयं ज्ञातुमिच्छति, जिज्ञासोः इदं न देयम्, एतत् शास्त्रं न देयम्। यः अनुष्ठातुमिच्छति तादृशाय इयं विद्या देया। अतः शिष्यपरीक्षणं बहुधा करणीयम्। तर्हि शिष्यपरीक्षणं करणीयं चेत् शिष्याणां नाम यः शिष्यः एतां विद्यां प्राप्तुमर्हति तस्य गुणाः के इति प्रश्नः भवति। अत्र ज्योत्स्नाव्याख्यायां कः इमाम् अत्यन्तगोप्यां विद्यां प्राप्तुमर्हति इति उल्लेखः अस्ति। जिताक्षाय शान्ताय सक्ताय मुक्तौ, विहीनाय दोषैरसक्ताय मुक्तौ, अहीनाय दोषेतरैरुक्तकर्त्रे, प्रदेयो न देयो हठश्चेतरस्मै इति। अतः यः जिताक्षः इन्द्रियसंयमवान्, शान्तः शान्तो नाम यस्य मनस्समाधानमस्ति तादृशः, सक्ताय मुक्तौ यः मुक्तौ आसक्तिमान् तन्नाम मुमुक्षुः, अनन्तरं विहीनाय दोषैः, दोषैः विहीनाय। दोषाः के? अरिषड्वर्गः एव दोषशब्देन उच्यते। कामक्रोध लोभ मोह मदमात्सर्यादिकमेव तत्र दोषशब्देन उच्यते। तो विहीनाय दोषैः असक्ताय भुक्तौ, भुक्तिः नाम भोगः, इन्द्रियैः विषयाणाम् अनुभवः। अतः इन्द्रियप्रवर्तने यः अत्यन्तमेव अनासक्तः, यः वैराग्यसम्पन्नः, अहीनाय दोषैः, यः अहीनाय दोषेतरैः, दोषभिन्नैः तन्नाम गुणैः, गुणैः अहीनाय नाम सद्गुणसम्पन्नः यः अस्ति तादृशः। नाम सद्गुणसम्पन्नत्वं नाम किम् अस्ति शिष्यस्य इति चेत् विनयस्वभावः इत्यादिकं तत्र सद्गुण्यम् उच्यते। अनन्तरम् उक्तकर्त्रे, एतद् इतोपि विशिष्टम्, उक्तं करोति इति उक्तकर्ता, नाम ओबीडियन्स् इति उच्यते किल, अतः गुरोः यद् वाक्यमस्ति तस्य अनुष्ठाने यः अभिरुचिं दर्शयति सः उक्तकर्ता। एतादृशाय प्रदेयः हठः, न देयः इतरस्मै। एतद् लक्षण विरहितः यः तादृशाय हठः न देयः इत्येवम् एकं योगाधिकारिलक्षणमस्ति। एवं नानाविधानि योगाधिकारिलक्षणानि सन्ति। तादृशाय योगाधिकारिणे यदि हठविद्या प्रदीयते तर्हि सः एतां विद्यां गोप्यतया परिरक्षति, परिरक्ष्य सम्यक् अनुष्ठाय सिद्ध्यभिमुखः अथवा सिद्ध्युन्मुखः भवितुमर्हति इति अस्य श्लोकस्य तात्पर्यम्। स्पष्टं
लक्षणमेतत् कुतः उद्धृतम्?
तत्रैव ज्योत्स्नाव्याख्यायाम् अस्ति, ज्योत्स्नाव्याख्यानकर्त्रा योगयाज्ञवल्क्यसंहितातः अयं श्लोकः उद्धृतः, यत्र योगाधिकारिणः लक्षणं विद्यते। स्पष्टं वा?
स्पष्टं
भवतु। एवम् एकादशः श्लोकः, तस्मिन् व्याख्याने इतोपि अनेकानि लक्षणानि सन्ति, नाम योगाधिकारिणः, योगचिन्तामणिकाराः इति, नाम योगचिन्तामणिः, वायुसंहिता, सुरेश्वराचार्याणां वचनं, वृद्धानां वचनम् इत्येवं बहवः श्लोकाः तत्र उद्धृताः, यत्र शिष्याणां लक्षणं वारं वारं तत्र कथितं, तादृशाय एव इदं ज्ञानं दातव्यम् इति। आत्मारामः लिखित्वा सर्वस्मै दत्तवान् किल, तर्हि कथम् इति प्रश्नः भवति वा?
आम् उदेति।
तर्हि किम् इति चेत्, अस्य ग्रान्थिकज्ञानेन नालम् इति, अस्माभिः सः लिखित्वा स्थापितवान् इत्येतत् किमुद्देश्येन इति चेत्, एकः सङ्ग्रहः भवतु इति धिया तेन कृतं, किञ्च मठशास्त्रं यथा पूर्वम् उक्तं, केवलं ग्रान्थिकं न, अस्य नाम केवलं भाषाविद् मठविद्यां बोधयति चेत् तस्य वस्तुतः सारः न गृह्यते। अनेके श्लोकाः अत्र अग्रे सन्ति, तत्र द्वितीय अध्याये प्राणायामस्य विवरणवेलायां तत्र गुरूपदिष्टमार्गेण प्राणायामान् समभ्यसेत् इति तत्र निर्दिशति। तत्र कथम्, अथासने दृढे योगी वशी हितमिताशनः गुरूपदिष्टमार्गेण प्राणायामान् समभ्यसेत् इति वदति। पुनः अत्र अत्रैव प्रथमाध्याये आसनानां विवरणवेलायाम् अत्र केषाञ्चन आसनानां विवरणसन्दर्भे तत्र व्याख्याकर्ता ज्योत्स्नाकारः वदति, केचन विषयाः सूक्ष्माः सम्प्रदायतः ज्ञातव्याः, नाम सम्प्रदायो नाम गुरुमुखग्रहणादेव ज्ञातव्याः केचन विषयाः इति वदति। एवमेव अन्ते चतुर्थे अध्याये तत्र शक्तिचालनम् इति एका विशिष्टप्रणाली अस्ति, नाम अनुष्ठानप्रकारः अस्ति, हठानुष्ठानप्रकारः अस्ति, तदपि गुरुमुखाद् अवगन्तव्यम् इति तत्रापि उच्यते। अतः हठयोगप्रदीपिकायाः ग्रान्थिकं ज्ञानम् आपाततः परिचाययति शास्त्रेऽस्मिन् किम् अस्ति इति, परन्तु वस्तुतः यः कश्चित् हठयोगी तस्य निकटतः ग्रन्थः अभ्यासः इत्येतदुभयं यदा गृह्यते तदा एव तज्ज्ञानं परिपूर्णं भवति। अतः आत्मारामेण यत्कृतं तत्तु न दोषाय इति। तत्र अपरोपि गुणः भवति, जनाः सामान्यतः हठयोगस्य स्वरूपं यदा ग्रन्थतः अवगच्छन्ति तदा कदाचित् अभिरुचिः उत्पद्यते, ओ ईदृशमस्ति वा शास्त्रम्, एतावन्तविषयाः सन्ति वा, तर्हि अहं योग्यं गुरुम् अन्विष्य अस्य अनुष्ठानप्रकारं स्पष्टतया तस्य अवगमनप्रकारं जिज्ञासामि इति जिज्ञासामपि उत्पादये। तदर्थमपि स्वात्मारामेण ग्रन्थरूपेण हठयोगस्य रचनं यत्कृतं तत् युक्तमेव इति एकं समर्थनं वक्तुं शक्नुमः। युक्तं वा?
युक्तं, स्पष्टं।
भव अग्रे इदानीं हठयोगः समीचीनं, तत्र अधिकारी इत्यादि सर्वमुक्तं, हठयोगः कुत्र अनुष्ठातव्यः, हठयोगानुष्ठानस्य देशः कः इति, किं स्थानं, कीदृशं स्थानम् अन्वेष्टव्यं यत्र हठाभ्यासः करणीयः, तत् स्पष्टीक्रियते अग्रिमे श्लोके। तत्र पुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे अनुप्रमाणपर्यन्तं शिलाग्निजलवर्जिते इति। अग्रे तत्र कीदृशः देशः चेतव्यः हठयोगानुष्ठानाय इति, सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे धनुप्रमाण पर्यन्तं शिलाग्नि जलवर्जिते नाम देशः कथं भवेत् तद् सुराज्यः भवेत् देशः अनन्तरं धार्मिकः भवेत् अनन्तरं सुभिक्षः भवेत् देशः अनन्तरं निरुपद्रवः देशः भवेत् अनन्तरं धनप्रमाणपर्यन्तं शिलाग्निजलवर्जितः देशः भवेत् इत्येवं तादृशे देशे एकान्ते मठिका मध्ये स्थातव्यं हठयोगिना इति एतादृशः देशः चेतव्यः तत्र एकाकिना भवितव्यम् एकः मठः निर्मातव्यः तत्र एकाकिना तेन स्थातव्यम् हठयोगिना इति इदानीं तत्र देशस्य विशेषणानि उक्तानि सुराज्यः देशः भवेत् इत्यस्ति सुराज्यो नाम कः इति चेत् यः देशः उत्तमराजसम्पन्नः नाम यत्र उत्तमः कश्चित् राजा शासनं करोति तादृशः देशः सुराज्यः भवति अनन्तरं धार्मिकः देशः धार्मिको देशः इति चेत् यत्र जनाः स्वस्वधर्मं परिपालयन्ति तत्र छान्दोग्योपनिषदि एकं वाक्यमस्ति तत् स्मृतिपथम् आगच्छति कश्चित् राजा स्वस्य प्रजानां स्वभावं विवृणोति नमेस्तेनो जनपदे न विद्वान् नस्वैरी स्वैरिणी कुतः इत्येवं स्वस्य प्रजानां विवरणं करोति नमेस्तेनः जनपदे मम जनपदे कोऽपि स्तेनः नास्ति तेनो नाम चोरः चोरः नास्ति न कश्चित् पुरुषः अथवा मनुष्यः अन्यस्य वित्तं सम्पदं वाञ्छति न अविद्वान् पण्डित पाण्डित्यहीनः नाम अनभ्यस्तशास्त्रः इति कश्चिदपि नास्ति अनन्तरं न स्वैरी स्वैरिणी कुतः महिला वा भवतु पुरुषः वा भवतु वैवाहिकं धर्मं पालयन्ति तादृशाः जनाः मम राज्ये सन्ति एतादृशाः जनाः एव धार्मिकाः इत्युच्यन्ते तर्हि सुराज्यशब्देन उत्तम राजा अस्ति उत्तमः राजा अस्ति यस्मिन् देशे कः देशः सुराज्यः देशः धार्मिको देशः कः यस्मिन् देशे न केवलं राजा धार्मिकः अपि तु अथवा सम्यक् शासनकुशलः अपि तु प्रजाः अपि एतादृशगुणसम्पन्नाः तन्नाम विद्वत्त्वं सदाचारः इत्येवम् अनन्तरं स्वविषये अनासक्ताः परस्य या सम्पद् तद्विषये अनासक्ता तादृशाः प्रजाः अपि उत्तमाः राजा अपि कुशलः तद् सुराज्यधार्मिकशब्दयोः विशेषणभूतयोः अर्थः अनन्तरं सुभिक्षः सुभिक्षः देशः नाम यत्र दुर्भिक्षः दुर्भिक्षं नास्ति सुभिक्षशब्दस्य अर्थः कः सुभिक्षशब्दस्य उत्तमवृष्टियुक्तः इत्यर्थः यत्र उत्तमा वृष्टिः भवति तत्र जलसम्पद् भवति जलं सम्यगस्ति चेत् सस्यसम्पद् भवति धान्यसमृद्धिः भवति जनाः सर्वसम्पद्भरिताः भवन्ति अतः राज्ञः स्वभावः उत्तमः भवेत् प्रजानां स्वभावः उत्तमः भवेत् पुनश्च तत्र धनधान्यसमृद्धिर्भवेत् वृष्टिद्वारा धार्मिकाः सन्ति चेत् स्वयं तत्र वृष्टिर्भवति अधार्मिकाः भवन्ति चेत् वृष्टिर्न भवति अतः सुभिक्षः अपि देशः भवेत् तादृशः देशः चेतव्यः हठयोगिना अनन्तरं निरुपद्रवे नाम तस्मिन् देशे चोरव्याघ्रादि भयं न भवेत् नाम चोराः वा अन्यव्याघ्रादयः वा न भवे भवेयुः बहिस्ताद्वा आगत्य आक्रमणं न कुर्युः क्रूरप्राणिनः अथवा दुष्टस्वभावयुक्ताः जनाः तत्र न स्युः। नाम तत्र अन्तः ये भवन्ति जनाः ते सर्वे धार्मिकाः पूर्वमेव उक्तं, बहिस्तादपि जनाः आगत्य पीडां न जनयेयुः। तन्नाम कः अर्थः? यदि कश्चित् अत्यन्तमेव शक्तिसम्पन्नः तर्हि तं प्रदर्शयितुम् अथवा तं पीडयितुं तं मारयितुम् अन्ये तन्निकटम् आगत्य एतत् कर्तुं भयमनुभवन्ति। स्पष्टं किल? यदि कश्चन देशः शक्तिसम्पन्नः, नाम धार्मिकः अपि भवेत्, सुभिक्षः अपि भवेत्, सुराज्यः अपि भवेत्, पुनश्च उपद्रवरहितः अपि भवेत्। कदा उपद्रवहीनता भवति? यदा कश्चित् स्वयं शक्तिशाली भवति, कोऽपि समीपम् आगत्य उपद्रवं दातुं
न शक्नोति,
न शक्नुवन्ति, न इच्छन्ति, भयमनुभवन्ति। अतः चोरव्याघ्रादि उपद्रवरहित तन्नाम शक्तिसम्पत् सम्पन्न देशः अपि भवेत् इति। तादृशः देशः हठयोगिना चेतव्यः। तादृशे देशे किं करणीयं? जनैः सह वार्तालापः करणीयः वा? किमर्थं तादृशं देशं गच्छेत् सः इति चेत्, तादृशे देशे काञ्चित् मठिकां सः कस्याश्चित् मठिकायाः निर्माणं कुर्यात्। तत्र मठिकायाः अन्तः एव सः भवेत् इत्यस्ति। एकान्ते मठिका मध्ये स्थातव्यं, मठस्य अन्तः एव सः भवेत्, बहिः गत्वा जनैः सह संसर्गं सम्पर्कं न प्राप्नुयात्। तेपि उत्तमाश्चेदपि तस्य कार्यं, योगिनः कार्यं बहिः गत्वा सञ्चारः न, किन्तु तेन मठिका मध्ये स्थातव्यं। तर्हि सा मठिका मध्ये तिष्ठतु, बहिः जनाः यादृशाः यादृशाः कीदृशाः वा भवन्तु, तस्य का चिन्ता? एषा तु अन्तः एव उपविशति किल। यथा एषु दिनेषु जनाः स्वस्य गृहस्य अन्तः उपविश्य दूरदर्शनमेव पश्यन्ति, अन्यत्र न गच्छन्ति, तथा एषः योगी अन्तः एव भूत्वा योगाभ्यासं करोतु इति चेत् तन्न सम्भवति, तस्य शान्तिः नष्टा भवति। यदि तत्र अधार्मिकः देशः भवेत्, दुःशासितः देशः भवेत्, उपद्रवयुक्तः देशः भवेत्, दुर्भिक्षसम्पन्नः देशः भवेत्, जनाः परितः तम् एकान्ते परित्यक्तुं नेच्छन्ति, पीडयन्ति, व्यथयन्ति। तस्मात् तेन एकान्ते अनुष्ठानं करणीयं चेदपि बहिः ईदृशी समृद्धिः, ईदृशगुणवत्ता आवश्यकी इत्येतत् स्फोरयति। अहं सद्यः एकं लेखनं लिखितवान् यदा विश्वयोगदिनं सद्यः एव आक्रान्तं किल, तस्मिन् दिने एतमेव श्लोकं आधारीकृत्य मया लिखितं। पश्यतु अस्मिन् श्लोके कीदृशः योगी उक्तः, एषः फुल् टैम् योगी वा पार्ट् टैम् योगी वा?
फुल् टैम्,
फुल् टैम् एव,
सर्वदा
अग्रे अपि आगच्छति। नाम पूर्णं समयं यः योगम् अनुतिष्ठति सः एव देशस्य विषये एवं चिन्तये, ओ अहं यस्मिन् देशे वसामि मम देशः ईदृशः भवेत् इति तस्यापि देशस्य विषये अवधानं भवेत्। वयं ये केचन वयं पठामः योगं, पाठयामः योगं, वयं फुल् टैम् योगिनः वा?
न,
तर्हि वयं पार्ट् टैम् योगिनः। फुल् टैम् योगी एव देशस्य विषये एतादृशान् विषयान् यदि अवलोकयति, चिन्तयति, तर्हि पार्ट् टैम् योगिनः वयम्, अस्माभिः अपि किं कर्तव्यं? देशस्य विषये अवधानं दातव्यम्। न, अहं योगाभ्यासी, मम देशस्य, समाजस्य, कुटुम्बस्य विषये कोऽपि सम्बन्धः नास्ति, एकस्मिन् प्रकोष्ठे नासिकां गृहीत्वा उपविशामि, अथवा अधशिरस्कतया नाम पादम् उपरि कृत्वा शीर्षासने तिष्ठामि, सः योगः न भवति। योगिना देशविषयेपि अवधानं दातव्यम् इति एवं मया अस्मात् श्लोकात् प्रतिपादनं कृतम्। किञ्च इतरेषाम् इदानीम् अहं योगं न करोमि, तर्हि अन्यः वा योगं करोतु, तदर्थम् अन्यैः देशः कथं परिरक्षणीयः? सुराज्यतया, धार्मिकतया, सुभिक्षतया, निरुपद्रवतया देशः परिरक्षणीयः। यदि देशः परिरक्ष्यते तदा अहं न करोमि चेदपि अपरः योगं कर्तुम् अर्हति किल. तस्मात् कारणात् योगाभ्यासिना योग अनभ्यासिना च देशस्य एतेषां गुणानां विषये अवधानं दातव्यम् इति मया तत्र इदं कृतं, तस्य संहारः कृतः तत्र मया कृतः एतेन श्लोकेन. भवतु अग्रे
धनुः प्रमाणपर्यन्तं
पादः परित्यक्तः वदामि तस्य विवरणं वदामि. पुनश्च सः देशः कथं भवेत् इति चेत् धनुप्रमाणपर्यन्तं शिलाग्निजलवर्जितः भवेत्. नाम तस्य प्रदेशस्य निकटे यस्मिन् देशे सः मठं प्रतिष्ठापयितुमिच्छति तस्मिन् देशे धनुः ज्ञायते किल. धनुः नाम चापः. चापः तस्य एक धनुःप्रमाणम् इति चेत् 72 inches इति उच्यते. चत्वारः हस्ताः, एकः हस्तः, हस्तद्वयं, हस्तत्रयं, हस्तचतुष्टयं मिलित्वा तत्र भवति. तमिळ्नाडुप्रदेशीय एव किल.
आम्.
तर्हि पुष्पं कथं विक्रीणन्ति तमिळ्नाडुप्रदेशे? तद् एकहस्त परिमितिः नाम एकं मोळम् इति उच्यते, हस्तः इति उच्यते. एवं तत्र चत्वारः हस्ताः भवन्ति चेत् तदेकं धनुःप्रमाणम् इति उच्यते. नाम तत्र मेशर् क्रियते चेत् 72 inches इति आगच्छति. तत्र व्याख्यानाधारेण पश्यामः चेत् तावत् निकटे किं किं न भवेत्. नाम अट्लीस्ट् धनुःप्रमाणदूरे शिला अग्निः जलं न भवेदिति. नाम शिलातः, अग्नितः, जलतः अट्लीस्ट् धनुप्रमाण यावदस्ति तावद्दूरं वा दूरे स्थातव्यमिति. अत्यन्तं शिलायाः निकटे, अत्यन्तम् अग्नेः निकटे, अत्यन्तं जलस्य निकटे मठिकायाः संस्थापनं न करणीयम्. नाम राकी एरिया, तत् शिला इति उच्यते. तादृश रफ् एरिया न भवेत्. यदि राकी एरिया भवति, नाम शिलायुक्तः प्रदेशः भवति, रगेड् भवति, भूमौ समतलत्वं न भवति. तस्मात् तादृशस्थानं न भवेत्, ततः दूरे भवेत्. अनन्तरम् अग्निः, नाम अग्नेः यत्र सम्भावना अस्ति तादृशात् देशात्, तादृश इदानीं यत्र अग्निसम्बद्धकार्यं प्रवर्तते, यागशालादिकं, पाकशाला काचित् भवति. अनन्तरम् एते भवन्ति किल नाम लोहकाराः, अग्निसम्बद्धतया यत्र यत्र कार्यं प्रवर्तते. अथवा इदानीं वनमस्ति, वने अपि दवाग्निः भवति, नाम फारेस्ट् फैर् इति उच्यते किल. अतः यत्र ईदृश अग्निसम्भावना अस्ति तादृशात् स्थानात् दूरे भवितव्यम्. अनन्तरं जलं, वयं सामान्यतः चित्रेषु पश्यामः नदीतीरे उपविश्यति इति वयं पश्यामः. तद् द्रष्टुं बहु रमणीयं, परन्तु न प्रायोगिकं, नाट् प्राक्टिकल्. किमर्थं? ज्ञातुं गन्तुं शक्यते, तत्र किञ्चित् अर्घ्यप्रदानादिकं गत्वा किञ्चित् दूरे एव आश्रमः स्थापनीयः. नद्या तीरे एव स्थाप्यते चेत् किं भवति?
ओ, यदि फ्लड् भवति तदा मठिकाः नाशः.
सत्यं, यदि कश्चित् प्रवाहाधिक्यं भवति तर्हि स मठं योगी प्रवाहपतितः भवति. तस्मात् उत्तमः देशः चेतव्यः, स च देशः शिलाग्नि जलेभ्यः अट्लीस्ट् धनुःप्रमाणपर्यन्तं दूरे भवेत्, मिनिमम् डिस्टन्स्. एतत् नाम एतत् सर्वम् आवश्यकं. नाम औष्ण्यकाले अग्निः आवश्यकः. अनन्तरं पातुं, स्नातुं जलम् आवश्यकम् इत्यादि अस्ति. अत्यन्तं दूरे अपि न भवेत्, अत्यन्तं निकटे अपि न भवेत् इति एतत् दर्शयितुं धनुःप्रमाणपर्यन्तम् इति पदं दत्तम्. एतादृशः देशः चेतव्यः, तत्र मठिका निर्मातव्या, तत्र अनुष्ठानं करणीयम्, एकान्ते अनुष्ठानं करणीयम्. यथा पूर्वं मया उक्तं, एकस्तपः द्विरध्यायी भटयोगी तु तपस्वी तस्मात् एकाकिना अनेन अनुष्ठानं कर्तव्यं भवति। इदानीम् अग्रिमे श्लोके तत्र मठस्य स्पेसिफिकेशन्स् मठस्य लक्षणम् उच्यते। इदानीं मठनिर्माणं कर्तव्यं, मठस्य स्थापनार्थं देशः उक्तः, मठस्य रूपं किं भवेत्, स्वरूपं किं भवेत्, आकारः कः भवेत् इत्येतत् अग्रिमे नाम त्रयोदशे श्लोके उच्यते। अल्पद्वारं अरन्ध्रगर्तविवरं नात्युच्च निचायतं सम्यक् गोमयसान्द्रलिप्तममलं निःशेषजन्तुज्झितं बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितं प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैः हठाभ्यासिभिः इति। अत्र योगमठस्य लक्षणम् इदम्, इदं योगमठस्य लक्षणम्, इदं योगमठस्य लक्षणं प्रोक्तमस्ति, एवम् उक्तमस्ति, एतदेव योगमठस्य लक्षणं भवेदिति। कैः उक्तमस्ति? हठाभ्यासिभिः उक्तमस्ति। ये अभ्यासं हठयोगस्य अभ्यासं कुर्वन्ति तैः इदं लक्षणं निरुक्तम्। कीदृशैः हठाभ्यासिभिः? इदानीमेव हठाभ्यासम् आरब्धवन्तः इति तादृशाः वा, तादृशैः वा? न, सिद्धैः। नाम ये हठाभ्यासं कृत्वा सिद्धिं प्राप्तवन्तः तादृशाः हठाभ्यासिनः, इदमेव मठलक्षणं यत्र स्थित्वा अनुष्ठानं कर्तव्यम् इति तैः एवं मठलक्षणम् उक्तमस्ति इति अन्तिमपादस्य अर्थः। अवशिष्टेन पादेन मठस्य नानाविधानि लक्षणानि उच्यन्ते। अल्पद्वारम् इदम् अयं मठः कथं भवेत् इति चेत् अल्पद्वारं द्वारं बहु बृहत् न भवेत् इति, लघ्वाकारं भवेत्। यथा मठस्य अन्तः प्रवेष्टुं शिरः अवनमय्य अन्तः प्रवेष्टव्यं, तादृशम् अल्पद्वारमेव भवेत् इति। अनन्तरं अरन्ध्रगर्तविवरं, तस्मिन् तद् तद् मठे रन्ध्रादिकं रन्ध्रगर्तविवरादिकं न भवेत् इति। रन्ध्रं नाम गवाक्षादिः, गवाक्षं नाम विण्डो, तस्य एकमेव द्वारं भवेत्, तच्च द्वारं लघु भवेत्, तद् महाद्वारं न भवेत्। नाम यदा द्वारं बृहत् भवति तत्र प्रवेशसमये अवधानं न भवति। किञ्चित् चिन्तयतु, एकं प्रकोष्ठमहं प्रविशामि, यस्य यत्र प्रवेशनसमये प्रवेशसमये मम अवधानमेव न भवति, परन्तु यदा अतः यत्र कुत्रापि अहं प्रविशामि तत्र भेदमेव नानुभवामि, बहिः अस्मि अन्तः गच्छामि कोऽपि भेदः नास्ति। परन्तु द्वारस्य अन्तः प्रवेशसमये शिरः अवनमय्य तलकुनिञ्ज यदा अहं प्रविशामि तदा मैण्ड्फुल्नेस् आगच्छति, ओ मया अत्र अवनमय्य प्रवेशः क्रियते, किमर्थम्? ओ एतत् विशिष्टं स्थानमस्ति, अत्र मया विशिष्टं किञ्चन कार्यं करणीयम्, बहिस्तात् अन्तः प्रविष्टः, किमर्थम् अन्तः प्रविष्टः? साधनकार्यार्थं प्रविष्टः इति मैण्ड्फुल्नेस् आनेतुम्, अवेर्नेस् आनेतुं, तद्विषये प्रज्ञोत्पादनाय अल्पद्वारम् इत्युक्तं स्यात् इति भावयामि। अस्तु, अनन्तरम् अरन्ध्रगर्तविवरम्, अरन्ध्रम्, अरन्ध्रं नाम यत्र गवाक्षादिकं न भवेत्, अरन्ध्रम्, अगर्तम्, अविवरम् इति त्रीणि सर्वत्रापि तत्र नञि योजनीयः, तत्र अरन्ध्रगर्तविवरम् इति तत्र नञि प्रथमा पदेन सह अस्ति, तत् सर्वत्र योजनं, अरन्ध्रम् तत्र गवाक्षादिकं न भवेत्, अनन्तरं गर्तः, गर्तशब्दस्य कः अर्थः? निम्नप्रदेशः इति। निम्नप्रदेशः इति चेत् तत्र टिल्ट् न भवेत्, फ्लाट सर्फेस निम्नम नाम यत्र जलं वयम् अहं जलं स्थापयामि चेत् यदि सः प्रदेशः निम्नः यत्र निम्नता अस्ति तदुद्दिश्य जलं गच्छति किल अतः तद् अरन्ध्रं गवाक्षरहितम् अगर्तं निम्नप्रदेशरहितम् अविवरं विवरशब्दस्य होल् इत्यर्थः यदि तत्र होल् भवति तर्हि किं भवति इति चेत् तत्र मूषकादिकं प्रविशति मूषकबिलं विवरशब्दस्य बिलम् इत्यर्थः मूषकादिकम् अस्ति चेत् किं भवति आगत्य पीडयति यत्र मूषकादिबिलं भवति तत्र नानाप्राणिनां प्रवेशस्य अवकाशः भवति तस्मात् प्रथमं भूमौ कथं भवेत् इति चेत् तत्र आदौ प्रथमं द्वारम् अल्पद्वारं भवेत् अनन्तरम् अन्तः गर्तः न भवेत् विवरं न भवेत् अनन्तरं रन्ध्रमपि न भवेत् अनन्तरं नात्युच्च नीचायतम् पुनश्च तत्र विशेषणानि दीयन्ते तत्र कथं भवेत् इति चेत् तत्र उच्चत्वमपि न भवेत् नाम इट् शुड् नाट् बि है अनन्तरं नीचत्वमपि न भवेत् नाम तत्र नाम भूमिः समतला भवेत् इत्येतत् पुनः तत्र सूचयितुम् इदं पदजातं प्रयुज्यते उच्चं न भवेत् तत्र है प्लाट्फार्म् इव न भवेत् अनन्तरं नीचं न भवेत् ग्रौण्ड् लेवल् तः अधः बेस्मेण्ट् इव बिलो द ग्रौण्ड् लेवल् अपि किञ्चित् तत्र अन्तः भूमिः न भवेत् न अति उच्च अतिनीच अनन्तरम् आयत नाम अत्यन्तं विस्तृतम् आयतशब्दस्य कः अर्थः वैड् इत्यर्थः अतः उच्चमपि न भवेत् नीचमपि न भवेत् आयतमपि न भवेत् एकः मनुष्यः प्रविश्य अनुष्ठातुं शक्नुयात् तावानेव अस्य अवकाशः भवेत् अन्तः अतः तत् नात्युच्च नीचायतं भवेत् अल्पद्वारम् अरन्ध्रगर्तविवरं नात्युच्च नीचायतं सम्यक् गोमय सान्द्रलिप्तं तत् गोमयेन गोमयं नाम गोः यत् पुरीषमस्ति गोमयम् इति उच्यते तत्र क्रिमिनाशकत्वमस्ति तस्मात् तादृशशुद्धगोमयं यदस्ति तेन तद् तलमस्ति किल भूमिः मठस्य अन्तः सम्यग् लेपनं करणीयं सान्द्रलिप्तं सान्द्रशब्दस्य कः अर्थः
गाढं
गाढं घनतया बिग् लेयर् तद् भवेत् डेन्स् लेयर् भवेत् सान्द्रशब्दस्य स्निग्ध इति नाम घनं तत्र लेवल् लेयर् भवेत् सम्यक् अपि तत् करणीयं यथा तत् किं तदा तदा तत् समीक्रियते तत् सम्यक् स्थापनीयं नाम बहुकालतः तत् एतदस्ति चेत् नश्यति किल तत् गुणाः गच्छन्ति पुनः पुनः तत् गोमयलिप्तं तदा तदा करणीयम् इत्यपि सूच्यते नाम एकवारं कृतम् अनन्तरं विस्मृतम् इति न भवेत् तत्त्वा तस्य गुणः रक्षणीयः सम्यक् गोमय सान्द्रलिप्तम् अनन्तरम् अमलम् अमलं नाम भूमिः एवं सज्जीक्रियते पुनः तत्र नानाविधाः अवकराः न क्षेत्रव्याः वस्त्रखण्डः तत्र किं कागदखण्डः अन्यत् खाद्यवस्तूनि तत्सर्वं विकीर्णं न भवेत् भूमिः शुद्धा भवेत् तत्र अन्ये केऽपि अवकराः न स्युः सम्यक् गोमय सान्द्रलिप्तम् अमलम् अनन्तरं विशिष्टमस्ति निःशेष जन्तुज्झितं केऽपि प्राणिनः न भवेयुः जन्तु नाम
प्राणि
निःशेष जन्तु येन केनापि प्रकारेण विद्यमानप्राणि उज्झितं रहितं यः कोऽपि प्राणी न भवेत् अस्य कः अर्थः पूर्वत्र उक्तं किं रन्ध्रं न भवेदिति अथवा विवरं न भवेद् यत्र मूषकादिकं न भवेदिति अस्तु तत्सर्वं पिस्ट् इति कारणेन तन्न भवत्येव यथा पिस्ट् न भवेत् एवमेव पेट्स् अपि न भवेत् अयो न मम एकं मार्जारमित्रमस्ति तं रक्षामि अथवा अन्यः कश्चन प्राणी अस्ति तं परिरक्षामि बहु मैत्री अस्ति तेन सह न सः पेट्स् अपि न भवेत् पेस्ट् अपि न भवेत् तद्वयमपि अत्र स्पष्टीकृतम् यतोहि किमर्थं पेस्ट् न भवेत् ज्ञायते चित्तविक्षेपं जनयति पेट् भवतु एकाकी अहम् उपविशामि मम मित्र किं मम कम्पनी ददाति किल सः भवतु किल पेट् किमर्थं पेट् मास्तु
योगसाधनार्थम् उचितं
सत्यं सञ्चरति पुनः चित्तस्य विक्षेपः भवति अनन्तरं तेन सह क्रीडनीयम् इति मनः भवति अनन्तरं तस्य यथा शुनकः अस्ति तेन सह चलनीयं किल वाकिङ्ग् करणीयं किल पोषणं तस्य आहारः तत्सर्वं करणीयं भवति अतः तन्न चलति तस्मात् विशेषजन्तूज्जितम् इति नाम कीट मशक इत्यादयः अपि न भवेयुः अनन्तरम् एतादृशाः प्रियप्राणिनः अपि न स्युः तत्र पुराणेषु एका कथा अस्ति जडभरतस्य रागः उत्पद्यते तत्र ओ एषः प्राणी मया रक्षणीयः इति पुनः क्लेशोद्भवः किल रागः इति एकः क्लेशः एव किल तस्मात् कारणात् रागभावनां प्राप्तुं योगसाधनार्थम् आगत्य प्राणिभिः सह रागं प्राप्नोति चेत् नाम तस्य पालनं पोषणं तस्य आहारदानं तस्य सेवा तत्र पुनः तत्र उद्देश्यभङ्गः भवति तस्मात् निःशेषजन्तु उचितम् इत्युक्तम् अतः अन्यत् बाह्ये मण्डप वेदी कूप रुचिरं बाह्ये एतत् सर्वं मठस्य अन्तः किं किम् अल्पद्वारम् अरन्ध्रगत्तविवरं नात्युच्चनीचायतं सम्यक् गोमय सान्द्रलिप्तममलं निःशेषजन्तु उचितम् इति पर्यन्तं मठस्य अन्तः वा बहिः वा
अन्तः
अन्तः इतः परं मठात् बहिः किं भवेत् बहिः विद्यमानं वातावरणं कथं भवेत् इति चेत् बाह्ये मण्डप वेदी कूप रुचिरम् एकः लघु मण्डपः भवितुमर्हति बहिः यत्र उपविश्य जनाः परस्परं चर्चां कर्तुम् अर्हन्ति बहिः अन्तः न एकेपि अस्य योगिनः मार्गदर्शनं प्राप्तुम् इच्छति दर्शनं प्राप्तुम् इच्छति अथवा अन्यः कोऽपि योगी भवति तेन सह एषः संवादं कर्तुम् इच्छति तदर्थं मण्डपः भवेत् अन्यत् सः अध्ययनादिकं कर्तुम् इच्छति तत्सर्वं मण्डपे कर्तुं शक्नोति अध्ययनं पारायणम् अनुष्ठानं सर्वं तत्र भवति मठस्य अन्तः तु किं करणीयं
हठयोगाभ्यासः
योगः एव करणीयः अतः तदर्थमेव वदन्ति वयं गृहे अपि योगाभ्यासं कुर्मः तत् नियते स्थाने नियते देशे करणीयं नियते काले अपि करणीयं प्रातः अष्टवादने चेत् अष्टवादने मम प्रकोष्ठे चेत् मम प्रकोष्ठे स्थानं परिवर्तयन्तः भवामः चेत् तत्र मनः पुनः विक्षिप्तं भवति अतः मठस्य अन्तः योगः एव बहिः नानाविधानि अनुष्ठानानि चर्चाः अध्ययनम् अन्यैः सह संवादः सर्वं मण्डपे भवितुमर्हति मण्डप वेदी काचित् वेदी भवितुमर्हति वेदीशब्दस्य कः अर्थः वेदीशब्दस्य आल्टर् इत्यर्थः यत्र कश्चित् विग्रहः स्थापयितुं शक्यते अत्र यदि सः पूजादिकं कर्तुम् इच्छति तत्सर्वं कर्तुम् अर्हति वेद्यां वेद्यां नाम वेदीशब्दस्य अन्योपि अर्थः अस्ति यागकुण्डः इत्यपि अर्थः अस्ति सो वेदीशब्दस्य पीठम् इत्यपि अर्थः अस्ति वेदीशब्दस्य यागकुण्डः इत्यपि अर्थः अस्ति अतः यदि सः यागम् अनुष्ठातुमिच्छति यज्ञयागादिकं तद् बहिः कर्तुम् अर्हति अथवा तत्र देवताविग्रहं स्थापयितुम् अर्हति वेद्यां स्थापयितुम् अर्हति अतः बाह्ये मण्डप वेदी कूपरुचिरं कूपः तत्र जलपानार्थं कश्चन कूपः अपि यथा भवेत् तथा तदेव स्थापनीयम् एतेन रुचिरम् एतेन शोभनं भवेत् நம தர்சன யோக்கியம் தத் கரணீயம் பாஹ்யே மண்டப வேதி கூப ருச்சிரம் நித்யமஸ்தி பிராகார சம்வேஷ்டிதம். பிராகார சப்தஸ்ய கஹ அர்த்தஹ? பிராகார சப்தஸ்ய ஏக பித்தி நம சரௌண்டிங் வால் இத்யர்த்தஹ. தஹ மத்யே மடஹ பஹிஹ வேதி கூப மண்டபாதிக்கம் பவிதும் அர்ஹதி புனஹ இட் இஸ் என்க்ளோஸ்ட் பை அ வால். ஏதத் சர்வம் பரிவாரிய காச்சித் வித்திஹி ஆவசியகி ததா தஸ்ய சஹ சுரக்ஷிதஹ பவத் யோகி. காச்சித் மடஸ்ய அந்தஹ பவேத் யோகானுஷ்டானம் குர்வன் மடாத் பஹிராகத்ய வேத்யாம் அதவா மண்டபே உபவிஷேத் தத்ராபி தஸ்ய பரிரக்ஷணார்த்தம் பஹிஹி பிராகார கஷ்டன நிர்மாதவ்யா. அதஹ ஏவம் தத்ர யோகஸ்ய மடஹ நிர்மாதவ்யா யோகினாம் ஹடயோகினாம் தஸ்ய அப்யாசாய இதி அயம் த்ரயோதசஹ ஸ்லோகஹ. சதுர்தசே சதுர்தச ஸ்லோக ஓ சரளஹ அஸ்தி. ஏவம் விதே மடே ஸ்தித்வா சர்வ சிந்தா விவர்ஜிதஹ குருபதிஷ்ட மார்க்கேண யோகமேவ சமர்ப்பயதே. ஏதாதுஷ உத்தம மடஸ்ய நிர்மாணம் கிருத்வா கிம் கரணீயம் மடே?
யோகம் அப்யாசே.
நித்ரா ந கரணீயா தத்ர யோகஸ்ய அப்யாச கரணீயஹ. நம சர்வ வ்யவஸ்தாம் சம்யக் கல்பயித்வா தத்ர காரியாந்தரம் ந கரணீயம். நம யோகஸ்ய இதனிம் கதாசித் அஸ்மாகமேவ தத்ர அனுபவஹ ஜாதஹ ஸ்யாத் ராத்ரோ பட்டனீயம் இதி உத்தம ஆசந்தஹ தத்ர ஏகம் டேபிள் லாம்ப் பாத்தும் ஜலம் அனந்தரம் வ்யஜனம் ஃபேன் அனந்தரம் புஸ்தகானி சர்வம் சம்யக் வ்யவஸ்தாபயாமஹ. வ்யவஸ்தாப்ய பட்டனார்த்தம் கஷ்டித் உபவிசதி தத்ர உபவிஷ்ய ஆசந்தே ஏவ நித்ரம் கரோதி. சம்யக் பரிகர பந்தம் கிருத்வா நம உத்தம பஹிஹி பரிதா சர்வ வ்யவஸ்தாம் கிருத்வா பின்னமேவ காரியம் கரோதி. ஏவம் ந பவேத் இதி. எதாதிருஷ பவன நிர்மாணம் தோ ஆவசியகம். எதாதிருஷ பவனேன வினாபி யோகா கர்த்தும் சக்யதே. கிந்தோ பவனம் நிர்மாது நிர்மாய தத்ர யத் உத்திஷ்டம் தத் கர்த்தவ்யம் தத் ஸ்மாரயதி. ஏவம் விதே மடே ஸ்த்வா சர்வ சிந்தா விவர்ஜிதஹ அந்ய சிந்தா ந பவே யோக மடஸ்ய நிர்மாணம் யோகாபியாசாய தத்ர யதி ப்ரவிஷ்யதே தரிஹி தத்ர நான்ய சிந்தா கர்த்தவ்யா அந்நிந்தாணாயிருஷயேஷாலனவிஷயத்தரவீபதேசியவரீயுத்தபம்ஸ்தி குருபதிஷ்ட மார்க்கேணா ஹடயோக பிரதீபிகாம் படித்வா தாபஷ்யது ஸ்வாத்மாராமஹ ஸ்வஸ்ய கிரந்தஸ்ய விஷயேவ நவததி. ஏவம் விதே மடே ஸ்தித்வா ஹடயோக பிரதீபிகாம் படித்வா ததுக்த மார்க்கேணா ஹடயோக பிரதி ஹடயோகம் சமத்யசே இதி நவததி ஸ. ஏவம் விதே மடே ஸ்தித்வா குருபதிஷ்ட மார்க்கேணா யோகமேவ சமத்யசே யோகமேவ சதாப்யசே ததா பிராதா மத்தியந்தினே சாயம் அர்த்தராத்திரே இத்தியவம் சத்வாரஹ காலாஹ உச்சந்தே அக்ரே யோகாபியாசாய ததேவ தத்ர சதாபதேன கிருஹ்யதே. ஏதாதிருஷே மடே அனேன பிரகாரேண யோகாபியாச கர்த்தவ்யஹ.